सर्वेभ्यो नमः. प्रवर्तमानविषयः अस्ति भूतकालरूपम् इति क्रियापदस्य. गतवर्गे वयं पूर्वं वयं दृष्टवन्तः भूतकालस्य क्तवतु, गतवान्, गतवती इति तादृशानि रूपाणि वयं पठितवन्तः. तदनन्तरम् अभ्यासार्थं वयं कथामपि आरब्धं कृतवन्तः. लङ्लकारः इति भूतकालस्य रूपम् अस्ति, तद् वस्तुतः तदेव क्रियापदमस्ति. तस्य परिचयः एतावता न जातः, अतः अद्य वयं किं कुर्मः चेत् प्रथमतया कथां समापयामः, तदनन्तरं लङ्लकारस्य अभ्यासः यदस्ति यः अस्ति तं कुर्मः. अस्तु, तत्र पुनरेकवारं कथां पठामः प्रथम आरम्भतः, यदि अन्य प्रश्नः कोऽपि अस्ति चेत् तत्. अस्तु, नरेश महोदय पठति वा तत्र आरम्भतः.
महोदय, एकदा श्रीकृष्णः, बलरामः, सात्यकैः च वनविहारार्थं गतवन्तः आसन्. वने ते मार्गभ्रष्टाः जाताः. निबिडं वनं प्रविष्टवन्तः. रात्रिः सञ्जाता. तैः रात्रिं यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत्. तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते इति ते निश्चितवन्तः.
अस्तु महोदय, तत्र प्रथमवाक्ये कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति इति मन्ये. एकदा श्रीकृष्णः, बलरामः, सात्यकिः च वनविहारार्थं गतवन्तः आसन्. वने ते मार्गभ्रष्टाः जाताः. ते इत्युक्ते कः, के?
श्रीकृष्णः, बलरामः, सात्यकिः.
हा, अस्तु. ते एव मार्गभ्रष्टाः जाताः. मार्गभ्रष्टाः इत्युक्ते किम्?
मार्ग न जानन्ति.
हा, मार्गः, मार्गं, मार्गः कः इति न जानन्ति ते. कुत्र गन्तव्यं इति न जानन्ति. अस्तु, तत्र निबिडं वनं प्रविष्टवन्तः. निबिडम् इत्युक्ते
निबिडं बहवः वृक्षाः सन्ति.
हा, बहवः वृक्षाः सन्ति. हा, अस्तु. वदतु महोदय, बाणचित्रि महोदय वदतु. घनवनमिति. रात्रिः सञ्जाता. तैः रात्रि यापयितुम् एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम् इति. हा, तत्र यापयितुम् इत्युक्ते किम्? यापयति, हा, स्पेण्ड् इति. हा, यापयति. हा, वर्गे वयं सार्ध एकघण्टा यापयामः. एतावत् समयः समयं यापयामः. यापयितुं, स्पेण्ड्. एकस्य वृक्षस्य अधः उपवेष्टव्यम् आपतितम्. आपतितम् इत्युक्ते किम्? हा, हा, तत्र उपवेष्टव्यम् अस्ति. उपवेष्टव्यं, कर्तव्यम् इति तादृश अर्थे उपवेष्टव्यम्. उपवेष्टव्यम् इत्युक्ते उपविशन्ति. तत्र करणीयमासीत्, तत् कार्यं करणीयमासीत्. अन्यत् किमपि कर्तुं अवकाशः नासीत्। किन्तु अत्र आपतितम् इति अस्ति, तत्र अन्य कोऽपि वदति वा आपतितम् इत्युक्ते किम् इति? ते निश्चितवन्तः वा? ते निश्चितवन्तः वा? फोर्स्ड् इति, हा आपतितम् इत्युक्ते फोर्स्ड्, हा तत्र ते न इष्टवन्तः अत्र वृक्षस्य अधः वयं रात्रिं यापयामः इति ते न इष्टवन्तः, किन्तु अन्य कोऽपि उपायः नासीत् इति कृत्वा तादृशं कार्यं कृतवन्तः ते। तत्र आपतितम् इति अन्यरीत्या वक्तुं शक्नुमः,
अनगतिकतया किमपि अस्ति।
सत्यं महोदय, एवमेव जीवने अनेकाः घटनाः भवन्ति। सौभाग्यस्य वार्ता भवति, सौभाग्यस्य वार्ता न भवति। सौभाग्यस्य वार्ता न भवति चेत् वयं वदामः एषा घटना आपतिता इति, आपतिता, अत्र आपतितम्, अत्र वृक्षस्य अधः उपवेष्टव्यम् इति आपतितं। तदनन्तरं किं, रात्रौ रक्षणार्थम् एकैकः अपि पर्यायरूपेण एकं प्रहरं यावत् जागरितः भवेत्, तदा अन्याभ्यां द्वाभ्यां निद्रां कर्तुं शक्यते। एकः पश्यति तत्र रक्षणार्थं, किमपि न भवेत् इति चिन्तयित्वा एकः सर्वत्र पश्यति, अन्यद्वयं निद्रां कुर्वन्ति। अस्तु, अग्रे बनचेतनी महोदय पठति वा अग्रे?
अस्तु महोदय। प्रथमपर्यायः सात्यकेः आसीत्।
पर्यायः इत्युक्ते किं, कः
वारः?
प्रथमपर्यायः
सात्यकेः आसीत्।
सात्यकेः विभक्ति का तत्र?
सात्यकी, सात्यकेः
कस्य पर्यायः
अस्ति महोदय,
कस्य पर्यायः अस्ति इति प्रश्नः।
सात्यकेः
अतः विभक्ति
षष्टि विभक्ति।
समीचीनं महोदय, अस्तु अग्रे।
सः प्रहरि सन् स्थितः।
तत्र किञ्चित् अग्रे अपि पठतु महोदय, पुनः अत्र।
यदा अन्यौ द्वौ निद्रां कृतवन्तौ तदा वृक्षतः एकः पिशाचः अवतीर्णवान्। सः सात्विकीं मल्लयुद्धार्थम् आहूतवान्।
बहूनि
कटुवचनानि उक्तवान् च। सात्विकी तस्य कटुवचनानां कृते तादृशानि एव उत्तराणि दत्तवान्। यदा पिशाचः सात्विकेः शरीरे मुष्टिप्रहारं कृतवान् तदा सात्विकिः तदुपरि पादप्रहारं कृतवान्। पूर्णं प्रहरं यावत् तयोः मल्लयुद्धं प्राचलत्। तेन सात्विकेः शरीरे बहवः क्षताः सञ्जाताः। सः नितरां श्रान्तः, किन्तु तस्मिन् समये सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्।
समीचीनं महोदय, अस्तु। तत्र भूतकालरूपं तु तत्र बहूनि सन्ति खलु तत्र दत्तवान् कृतवान् उक्तवान् इति
अवतीर्णवान् आहूतवान्
अत्र प्रथमवाक्ये किमपि नास्ति खलु सात्विकेः आसीत् इति तदनन्तरं सः प्रहरी सन् स्थितः एकं प्रहरं यावत् जागरितः भवेत् इति अस्ति अस्तु इदानीं प्रहरी इत्युक्ते किम् इति जानाति वा
प्रहरी इत्युक्ते कालमापिका याम इत्युक्ते त्रीणि घण्टा
प्रहरः
प्रहरं करोति सः प्रहरी अतः
तादृशार्थः यस्य पर्यायः द्रष्टुमस्ति सः प्रहरी सः एव उत्थित्वा सर्वत्र पश्यति प्रहरं यावत्
प्रहरः इत्युक्ते कालः
कालस्य तत्र यस्य धनमस्ति सः धनी इति तादृशरूपम् अत्रापि अस्ति यस्य पर्यायः अस्ति अस्मिन् प्रहरे यस्य पर्यायः अस्ति सः प्रहरी इति इदानीं सः प्रहरी इति
प्रहरी भूत्वा इति
अतः एव सन्निति भूत्वा इति अर्थे सत्यं प्रहरी सन् स्थितः
अन्यद्वौ
निद्रां कृतवन्तौ तदा किम् अभवत् वृक्षतः
एकः पिशाचः अवतीर्णवान् अधः आगच्छति
सः
महोदय
महोदय
पुनः एकवारं सः प्रहरी सन् इति
प्रहरी सन् प्रहरी भूत्वा प्रहरी तत्र अन्यां कथाम् अन्यां कथां यां पठामः तत्र भीमसेनः गदापाणि सन् तादृश एव अत्र सः प्रहरी यस्य पर्यायः द्रष्टुमस्ति अस्मिन् प्रहारे यस्य पर्यायः द्रष्टुमस्ति सः प्रहरी इदानीं सः प्रहरी सन् स्थितः इत्युक्ते अस्मिन् प्रहरे वदतु महोदय
क्षम्यतां महोदय तत् सम्पूर्णं कृत्वा अहं वदतु
अस्तु अस्तु तत् अस्मिन् प्रहरे सः एव सर्वत्र दृष्ट्वा किमपि न रक्षणार्थं किमपि नास्ति इति सः एव रक्षणं करोति अतः सः प्रहरी इति भवति भगिनि प्रहरी इति विशेषणम् अस्ति सत्यं यस्य धनं यस्मिन् यस्य धनम् अस्ति सः धनी इति भवति तादृश तादृशरूपम् अत्र अस्ति प्रहरी इति
किं भेद प्रहरी स्थितः
स्थितः इत्युक्ते सः प्रहरी भूत्वा तत्र स्थितः आसीत् सः प्रहरी इत्युक्ते तस्यैव कर्तव्यः अस्ति सर्वत्र रक्षणस्य कर्तव्यः तस्य अस्ति अस्मिन् प्रहरे सः एव रक्षणं करोति अस्तु किन्तु सः कुत्रापि न गच्छति अत्र एव तिष्ठति अतः सः प्रहरी सन् स्थितः तत्रैव तिष्ठवान् सः सन् इत्युक्ते तत्रैव तिष्ठवान् इति न सन् इत्युक्ते सः एव प्रहरी अभवत् इति प्रथमपर्यायः कस्य सात्विकेः अतः कः रक्षणं करोति इदानीं सात्विकी करोति यः रक्षणं करोति सः प्रहरी इति चिन्तयतु अस्मिन् प्रहरे सः एव सर्वत्र दृष्ट्वा रक्षणं करोति तद् वयं प्रहरी इति वदामः
महोदय तत् वयम् इदानीपर्यन्तं वयं न पठितवन्तः सन् इत्यस्य उपयोग सन् इति अव्ययमस्ति वा
न अव्ययम् इत्युक्ते तत् अस् धातोः पठति पठन् शत्रन्तरूपम् अस्ति
सन्त् इत्यस्य ओके
अव्ययं नास्ति सन् पठन् पठन्ति विशेषणं भवति महोदय तत्र स्त्रीलिङ्गे किं भवति पठन् पठन्ती भवति पुल्लिङ्गे पठन् अस्ति स्त्रीलिङ्गे पठन्ती अस्ति दीर्घैकारः अत्र सन् एतत् पुल्लिङ्गरूपम् अस्ति सन्
स्त्रीलिङ्गरूप
सन्ति
सन्ति
इति मन्ये
अस्तु अस्तु महोदय पठन्ति
हा पठन्ति इति तादृशरूपम् अस्ति
धन्यवादः
हा अस्तु महोदय अग्रे वदतु महोदय बनचेतनी महोदय
यदा अन्यौ द्वौ निद्रां कृतवन्तौ सः अवतीर्णवान् एकः पिशाचः वृक्षतः अवतीर्वान् अधः आगच्छति तत्
तत्र अवतीर्णवान् क्रियापदं लट्लकाररूपं किं भवति गतवान् गच्छति अवतरति
आरोहति अवतरति
अवतरति
अवतु उपसर्ग
तरति अवतरति अवतर् अवतीर्णवान् इति अस्तु महोदय अग्रे
सातके मल्लयुद्धार्थम् आहूतवान् आह्वय आह्वय आहूतवान्
मल्लयुद्धार्थम् इत्युक्ते आह्वयति मल्लयुद्धार्थम् इत्युक्ते हस्तेन
भुजद्वयं
हा अस्तु हा समीचीनम् अस्तु अग्रे
महोदय अत्र मल्लयुद्धातुं
युद्धार्थं युद्धार्थम्
अस्तु किन्तु मल्लयुद्धातुं
न कर्तुम् इति भवति मल्लयुद्धं कर्तुं मल्लयुद्धं कर्तुं तत्र क्रियापदस्य तुमुन् रूपं भवति नामपदस्य तुमुन् रूपं नास्ति भगिनि मल्लयुद्धम् इति तत्र तत् क्रियापदं नास्ति इति कृत्वा मल्लयुद्धं कर्तुम् इति कर्तुं आहूतवान् इति अग्रे महोदय
बहूनि कटुवचनानि उक्तवान् च
कटुवचनानि इत्युक्ते कठोरवचनं वचनानि
कठोरवचनं
अतः सात्यकी किं कृतवान् तत्
श्रुत्वापि तस्य प्रति कटुवचनम् उक्तवान्
सः अपि कटुवचनानि उक्तवान् अस्तु इदानीं किं भवति तदनन्तरं
तदनन्तरं पिशाचः
यदा
मुष्टिप्रहारं कर्तुम् आरब्धवान्
यदा पिशाचः
सात्यकेः शरीरे मुष्टिप्रहारं कृतवान्
तत्र सात्यकेः विभक्तिका
महोदय
सात्यकेः विभक्तिका
कस्य शरीरे सात्यकेः शरीरे
शरीरे इति विभक्ति
शरीरे इति सप्तमी विभक्ति षष्टि
तदा सात्यकिः किं कृतवान्
तदा सात्यकेः अपि पादप्रहारं कृतवान्
सः अपि पादप्रहारं कृतवान् अस्तु इदानीं किं भवति पूर्णं
इदानीं पूर्णं प्रहारं पूर्णं एतत् मल्लयुद्धमेव प्रचलति
प्राचलत् अस्ति तत् किञ्चित् उक्तवन्तः तस्मिन् विषये, अद्य तदेव विषयः भवति. तत्र प्र प्लस् अचलत् इति, चलति अचलत्, प्र प्लस् चलति प्रचलति, तस्य लङ्लकारः अस्ति प्राचलत् इति. हा, कथां समापयित्वा तदेव रूपम् अग्रे पश्यामः. अस्तु
महोदय, इति अत्र पूर्णं प्रहरं यावत्
न यावत् 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 इत्युक्ते पूर्णं,
यदि
तद् यापयितुम् अन्यत् अस्ति, यापयितुम् इति क्रियापदम् अस्ति तत्र, यावत् अस्ति, यावत् अस्ति.
अस्तु, अहम् इति प्रयत्न करोमि. प्रचलत् स्थाने यदि यापयित् धातु प्रयोग अस्ति.
हा, तत्र न किन्तु मल्लयुद्धम् इति भवति, तद् अभवत् इति कर्तुं शक्नुमः. यापयति इत्युक्ते स्पेण्ड् इति अर्थे अस्ति, समयस्य विषयः अस्ति तत्र यापनम्. हा, युद्धस्य विषयं नास्ति, किन्तु युद्धस्य समयस्य यापनं भवति. हा, समीचीनं वा भगिनि? हा, अस्तु. तत्र प्राचलत् इति तदेव रूपम् अग्रे अद्यतनविषयः अस्ति. अस्तु महोदय, बनचेतन महोदय अग्रे.
तेन सात्यकेः शरीरे बहवः क्षताः सञ्जाताः.
तेन इत्युक्ते केन?
पिशाचेन
प्रहारेण.
हा, प्रहारेण, पिशाचेन, मल्लयुद्धेन. अस्तु अस्तु. हा, सात्विकं
मल्लयुद्धं प्रचलत्. मल्लयुद्धेन महोदय.
हा, अस्तु, समीचीनं महोदय. अस्तु अग्रे, सात्विके शरीरे बहवः क्षताः सञ्जाताः. हा, इदानीं सः किं?
सः नितर महोदय.
हा, सः नितरां श्रान्तः. इदानीं सः किं करोति? अत्र वाक्यमेकवारं पठतु. किन्तु
तस्मिन् समये सहयोगिनः सहयोगिनोः उत्थापनस्य अपेक्षया निद्राकरणम् एव उचितम् इति विचिन्त्य सः निद्रां कृतवान्.
हा, अस्तु. तत्र किं किं वक्तुं शक्नुमः? तत्र सहयोगिनोः इति विभक्तिका कृतवान् इति भूतकालरूपम् अस्ति. हा, सहयोगिनोः इति पदस्य विभक्तिका?
ओहो,
उत्थापनम् इति अस्ति, पठनम् इति अस्ति. पठनम् अस्ति चेत् प्रश्नः कः तत्र? अथवा गमनम् अस्ति
महोदय.
हा, कोऽपि गच्छति, अत्र प्रश्नः किं भवति? कस्य गमनम्? अत्र उत्थापनम् इति अस्ति चेत् कस्य उत्थापनम्? अतः उत्तरे विभक्ति का भवति?
सहयोगिनोः
इति पदस्य
उत्थापनम्.
हा, विभक्ति का? अतः
षष्टि महोदय.
षष्टि, समीचीनं महोदय. अस्तु,
द्वितीय, सोरि, द्विवचन,
द्विवचनं. हा, समीचीनं. हा, सहयोगिनोः द्विवचनं, षष्टि द्विवचनम्. उत्थापनस्य तत्र अपेक्षया इति अस्ति चेत् का विभक्ति उपयोगकरं भवति? तत्र उपयोगकरी भवति. हा, अपेक्षया
तृतीया महोदय.
अपेक्षया वाक्यं वदतु महोदय, कोऽपि वाक्यं वदतु. भारतदेशम् अस्ति, अपि इङ्ग्लेण्ड् अस्ति. भारतदेशं बृहत् अस्ति, इङ्ग्लेण्ड् देशं लघु अस्ति. इदानीम् अपेक्षया उपयुज्य वदतु वाक्यं.
भारतदेशदेशम् अपेक्षया इङ्ग्लेण्ड् देशं लघु अस्ति.
अन्य कोऽपि अन्यत् वदति वा कोऽपि?
भारतस्य अपेक्षया
भारतदेशस्य इति षष्ठी अस्ति महोदय तत्र. अपेक्षे यत्र अस्ति तत्रापि षष्ठी एव अस्ति, अतः एव उत्थापनस्य इति अस्ति महोदय. अस्तु, तत्र विचिन्त्य इति कीदृशरूपं तस्य अन्य अन्य पर्यायपदं जानाति वा?
चिन्तनं कृत्वा विचिन्त्य लब्बन्तरूपमस्ति विचिन्त्य.
सत्यं मत्वा. समीचीनं महोदय. अस्तु, समीचीनम्. अस्तु, तत्र कोऽपि प्रश्नः नास्ति इति मन्ये. अस्तु, अग्रे गच्छामः. गीताञ्जलि भगिनी अग्रे पठति वा?
अस्तु महोदय, प्रयत्नं करोमि.
अन्य कोऽपि अस्ति वा?
आं महोदय, नमस्कारः, हरि अस्मि.
हरि महोदय, नमस्कारः. नमस्कारः महोदय. अस्तु, गीताञ्जलि भगिनी पठति, तदनन्तरं भवान् पठतु. अस्तु,
द्वितीयः पर्यायः बलरामस्य आसीत्. तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्. कटुवचनैः निन्दन्ति वा निन्दितवान् च मल्लयुद्धे महावीरेण बलरामेण अपि
बलरामेण
मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता. श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान्.
अस्तु, समीचीनं भगिनि. इदानीम् एकमेकं वाक्यं पश्यामः. प्रथमं वाक्ये किम् अस्ति? द्वितीयपर्यायः बलरामस्य आसीत्. पर्यायः इत्युक्ते टर्न् इति. आसीत्. प्रथमपर्यायः सात्यकेः आसीत्. अग्रे तृतीयपर्यायः कस्य भवति?
श्रीकृष्णस्य
श्रीकृष्णस्य भवति. अस्तु, अग्रे.
तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान्.
तम् इत्युक्ते कम्?
तम् इत्युक्ते द्वितीयविभक्ति बलराम
बलरामं. द्वितीयविभक्ति बलरामं. तं बलरामम् अपि
पिशाचः मल्लयुद्धार्थम् आहूतवान्.
मया सह मल्लयुद्धं करोतु इति आहूतवान्.
अस्तु महोदय, मल्लयुद्धं करोतु
इति.
कटुवचनैः निन्दितवान् च.
निन्दितवान् इत्युक्ते प्रशंसा न कृतवान् खलु? तस्य विपरीतः एव कृतवान् सः. निन्दितवान्, निन्दनं कृतवान् इति.
भर्त्सितवान्
किमस्ति महोदय?
भर्त्सितवान् इति भवति
वा? न जानामि महोदय.
भर्त्सनम्.
अस्तु, अस्तु महोदय, धन्यवादः.
कटुवचनैः तृतीया कटुवचनैः निन्दितवान् च.
तत्र कटुवचनैः इति माध्यमं भवति. केन? अहं खादामि, हस्तेन खादामि, हस्तेन खादितवान्. तत्र खादति, खादितवान्. केन खादितवान्? हस्तेन खादितवान्. तत्र निन्दति, निन्दितवान्. केन निन्दति कटुवचनैः निन्दति अथवा कटुवचने कटुवचनैः तृतीया बहुवचनं कटुवचनैः निन्दितवान् सः कः कः निन्दितवान्
पिशाचः
निन्दितवान् निन्दितवान्
हा कटुवचनैः निन्दितवान्
निन्दितवान् समीचीनम् अग्रे
मल्लयुद्धे महावीरेण बलरामेण अपि सा एव गति प्राप्ता मल्लयुद्धे इत्युक्ते सप्तमी महावीरेण बलरामेण
तत्र कः सम्बन्धः महावीरेण बलरामेण इति
इत्युक्ते पिशाचः
न केवलं महावीरः महावीरेण बलरामेण पदद्वयं तयोः मध्ये कः सम्बन्धः
विशेषणं विशेष्य
विशेष्यं समीचीनं महावीरः बलरामः महावीरेण बलरामेण इति तृतीया अस्ति
अपि एव गतिः प्राप्ता
अत्र रघुपतिमहोदय कर्तृ वा कर्मणि वा एतत्
महोदय कुत्र महोदय
महावीरेण बलरामेण अपि सा एव गतिः प्राप्ता
कर्मणि प्रयोगः
समीचीनं महोदय तत्र तृतीया अस्ति महावीरः बलरामः महावीरः बलरामः ताम् एव गतिं प्राप्तवान्
महोदय सा इत्युक्ते
सा गतिः इति स्त्रीलिङ्गपदमस्ति स्टेट् गतिः इत्युक्ते सः एव सः अपि श्रान्तः अभवत् तस्य शरीरे अपि बहवः क्षताः सञ्जाताः सा एव गतिः
प्राप्ता
न या गतिः सात्यकेः प्राप्ता सा गतिः एव बलरामेण अपि प्राप्ता
अवगच्छामि
इत्युक्ते सात्यकेः अपि बलरामस्य गतिः समाना इति
गतिः इत्युक्ते
स्टेट् इति कण्डीशन् सत्यं 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 किन्तु तद् द सेम् कण्डीशन् वास् अटेन्ड् बै हिम् इति कर्मणि प्रयोगः पासिव् इति यत् वदामः तदस्ति अग्रे भगिनि समीचीनं अग्रे
श्रान्तः सः अपि प्रहरान्ते निद्रां कृतवान्
प्रहरस्य अन्ते सः अपि निद्रां कृतवान् श्रान्तः सः तत्र सम्बन्धः कः
श्रान्तः सः इत्युक्ते विशेषणं
विशेष्यं समीचीनं भगिनि अस्तु
श्रान्तः बलरामः सः अपि प्रहरस्य अन्ते निद्रां कृतवान्
समीचीनं भगिनि अस्तु इदानीं हरि महोदय एतत् वयं नूतनतया पठामः खलु एतावत् पूर्वमेव गतवर्गे पठितवन्तः अतः शीघ्रतया वयम् एतत् कृतवन्तः किन्तु अग्रे किञ्चित् दृष्ट्वा अग्रे गच्छामः अस्तु एकवारं पठतु महोदय अग्रिमपरिच्छेदः तं पठतु
तृतीये पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान् तम् अपि पिशाचः मल्लयुद्धार्थम् आहूतवान् कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान्। उक्तवान् च भवान् बहुविनोदप्रियः इव भासते, मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रम् इव विनोदं कुर्वन्नस्ति इति। तदा पिशाचस्य बलं न्यूनं जातं, तस्य शरीरमपि संकुचत् गतम्। अन्ते सः झिल्लिका इव लघुशरीरः जातः। तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्।
अस्तु, तत्र पश्यामः किं किम् अस्ति। प्रथमवाक्ये किम् अस्ति,
तृतीये पर्याये श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्। तृतीये पर्याये सप्तमी विभक्ति, श्रीकृष्णः कर्तृपदम्, श्रीकृष्णः सुरक्षानिमित्तम् आगतवान्, सुरक्षानिमित्तं विशेषणम्।
आगतवान् इति श्रीकृष्णपदस्य विशेषणमस्ति। सुरक्षानिमित्तं, सुरक्षानिमित्तम् इत्युक्ते सुरक्षा कर्तुम् इति, तत् कर्तुम् इति, तत्र निमित्तम् इति, किन्तु तत् कर्तृपदं नास्ति, अपि तत् नपुंसकलिङ्गपदम् अस्ति तत्र सुरक्षानिमित्तम् इति।
आम् महोदय, नामपदमेव अस्ति वा?
हा हा, नामपदम् अत्र निमित्तम् इति यदस्ति तद् नामपदम् अस्ति, सत्यम्। आम्
आम्, सुरक्षानिमित्तम् आगतवान्, आगतवान् पुल्लिङ्ग, पुल्लिङ्गे भूतकालम्,
सत्यम्। इदानीं
तमपि पिशाचः मल्युद्धार्थम् आहूतवान्।
इदानीं
द्वितीय विभक्ति श्री तमपि तं श्रीकृष्णः इत्युक्ते।
सत्यं सत्यं, किन्तु सः श्रीकृष्णः, इदानीं द्वितीयविभक्तिरूपं किं भवति, सः
श्रीकृष्णं,
तं श्रीकृष्णम् अपि
पिशाचः मल्युद्धार्थं कर्तुम् इच्छति,
तेनपि श्रीकृष्णेन अपि सः मल्लयुद्धार्थं मल्लयुद्धं कर्तुम् इच्छति, अतः सः तं श्रीकृष्णं, वदतु महोदय,
आह्वानं करोति,
आह्वयति।
इदानीं श्रीकृष्णः हसन्, कृष्णः हसन् एव युद्धं कर्तुम् आरब्धवान्।
अत्र हसन् इति अस्ति, हसन् इति रूपं जानाति खलु,
हसित्वा
इत्युक्ते तद् तद् तत्र किम् अस्ति, कार्य क्रियाद्वयम् अस्ति, एकं हसित्वा इति अस्ति चेत् पूर्वं हसनं, पूर्वं कोऽपि हसति, तदनन्तरम् अन्या क्रिया भवति, किन्तु यदा क्रियाद्वयम् एकस्मिन् समये भवति, अहं गच्छन् गायामि, गायामि गच्छामि, अहं गच्छन् गायामि इति, अतः तत्र किं भवति, सः हसति तस्मिन्नेव समये करोति, कर्तुम् आरब्धवान्,
कर्तुम् आरब्धवान्। श्रीकृष्णः उक्तवान् च भवान् बहु विनोदप्रियः इव भासते. भवान् इत्युक्ते पिशाचः. बहुविनोदप्रियः इति
विनोदः इत्युक्ते किमपि वदति वा? विनोदः
विनोद अन्यूजुवल्
फन्नी गै फन्नी बहु विनोदप्रिय विनोद इत्युक्ते हास्य हास्यप्रिय
एण्टर्टेन् यः
एण्टर्टेन्
बहु विनोदप्रियः
महोदय फन्नी नै ह्यूमर्
ह्यूमर्
विनोदप्रियः इव भासते भासते वदति
भासते इत्युक्ते इति मन्ये इति अहं चिन्तयामि तद् तादृश भासते इट् अपियर्स् इति
भासते मम निद्राम् आलस्यं च दूरीकर्तुमेव भवान् मित्रमिव विनोदं कुर्वन्नस्ति.
तत्र दूरीकर्तुम् इति कर्तुं दूरीकर्तुम् इति क्रियां सूचयति. तत्र किं दूरीकर्तुं किं दूरीकर्तुं निद्राम् आलस्यं च. कस्य निद्राम् आलस्यं?
कृष्णस्य
श्रीकृष्णस्य निद्राम् आलस्यं च दूरीकर्तुम् एव भवान् पिशाचः मित्रम् इव. मित्रम् इव इत्युक्ते लैक् अ फ्रेण्ड् मित्रम् इव मित्रम् इव
विनोदं
कुर्वन् अस्ति. कृतवान् इति न कृतवान् इत्युक्ते तद् अभवत् इदानीं नास्ति, किन्तु सः तद् कुर्वन् अस्ति इदानीमपि सा क्रिया भवति इति. मलयुद्धं भवति खलु, अतः कुर्वन् अस्ति कुर्वन् हसन् हसन् इति तत्र तावत् तदेव रूपं कुर्वन् अहं अहं कार्यालये कार्यम् इदानीं न समापितवान् कार्यं न समाप्तम् अतः अहं कार्यं कुर्वन् अस्मि इति भवति. अत्रापि
कुर्वन्
कण्टिन्यूस्
कुर्वन् भवन् क्रियापदमेव भवति.
तत् शत्रन्तरूपम् इति वदामः अग्रे भवति
महोदय. महोदय किमर्थं द्वे द्वे नकार अस्ति कुर्वन् अस्ति किमर्थं नास्ति
कुर्वन्
योगः अस्ति
तत्र सन्धिविषयः अस्ति भगिनि तत्र सन्धि अस्ति. रघुपति महोदय सन्धेः नाम जानाति वा?
न जानामि महोदय, दृष्टवान् एव.
अस्तु अस्तु, सन्धिविषय इति जानामि किन्तु सन्धेः नाम न जानामि अतः. अस्तु 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 सन्धिविषय अस्ति भगिनि तत्र, अतः प्रश्नः समीचीनं. कुर्वन् प्लस् योगः अस्ति कुर्वन् अस्ति इति नकारस्य द्वित्वं भवति अत्र. अस्तु अग्रे महोदय.
तदा पिशाचस्य बलं न्यूनं जातम्. तदानीं पिशाचस्य षष्टिविभक्ति पिशाचः षष्टिविभक्ति बलं न्यूनं जातं द्वितीयविभक्ति बलं न्यूनं जातम्.
तत्र बलं किं बलम् इति पदस्य विभक्ति का तत्र
द्वितीय
तदेव कर्तृपदम् अस्ति बलं न्यूनं जातम् अस्ति इति बलमस्ति, बलं न्यूनं जातम् अस्ति, न्यूनं जातं, जातम् इति बलं पदस्य विशेषणम् अस्ति, न्यूनम् इति जातं पदस्य विशेषणम् अस्ति. न्यूनं भवति इति तद् अड्वर्ब् इति वदामः खलु, तादृशरूपम् अस्ति तत्र.
तस्य शरीरमपि संकुचत् गतम्.
तदपि लघु अभवत्.
पिशाचस्य शरीरमपि लघु अभवत्.
तत्र श्रीकृष्णस्य यदा मल्लयुद्धार्थम् आह्वानं भवति, श्रीकृष्णः उत्तररूपेण सः कटुवचनं न वदति खलु, न वदति, किन्तु केवलं हसित्वा सः वदति, अस्तु एतत् मित्रेण सह युद्धं कुर्मश्चेत् तत्र किमपि क्षताः न भवन्ति खलु. तादृशयुद्धं सः करोति, किन्तु किं भवति, पिशाचस्य शरीरं लघु भवति.
अन्ते सः जिल्लिका इव लघुशरीरः जातः.
जिल्लिका इत्युक्ते क्रिकेट् इति इन्सेक्ट् अस्ति.
अन्ते
जिल्लिका इव लघुशरीरः भवति अभवत्
अभवत् तदा श्रीकृष्णः तं स्वस्य उत्तरीयस्य अञ्चले बद्धवान्.
तत्र तम् इत्युक्ते कम्?
पिशाचं.
सः पिशाचः, तं पिशाचं,
कर्मपदं पिशाचं
बद्धवान्.
स्वस्य उत्तरीयस्य, श्रीकृष्णस्य उत्तरीयस्य.
स्वस्य उत्तरीयस्य अञ्चले. अञ्चले इत्युक्ते अञ्चले एण्ड् बोर्डर् इति. वस्त्रस्य वस्त्रमस्ति तस्य अञ्चल. उत्तराञ्चल् अपि तादृशमेव अस्ति इति मन्ये खलु. अञ्चले बोर्डर् इति
बद्धवान्.
इदानीं पिशाचः कुत्र अस्ति? पिशाचः श्रीकृष्णस्य
वस्त्रस्य अञ्चले
अस्ति. सः बद्धः अस्ति तत्र. अस्तु, समीचीनम्. अस्तु, रघुपतिमहोदय अग्रे.
हा महोदय, प्रातः यदा ते प्रस्थिताः तदा सात्यकिः बलरामः च पिशाचेन सह रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ. तेन सञ्जातान् क्षतान् अपि दर्शितवन्तौ. श्रीकृष्णः हसन् पिशाचम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापितवान्, उक्तवान् च, एषः अस्ति क्रोधपिशाचः, एतस्य प्रकृतिः एषा अस्ति, प्रत्युत्तरदानेन एषः वर्धते, उग्रतां च प्राप्नोति, किन्तु यदि उपेक्षां कुर्मः तर्हि सः स्वयमेव दुर्बलः भवति, लघुरूपं प्राप्नोति इति. क्रोधपिशाचस्य स्वरूपं तदा ज्ञातवन्तौ सात्यके बलरामौ. प्रातः यदा ते प्रातः ते यदा प्रस्थिताः तदा यदा तदा अस्ति प्रस्थिताः इत्युक्ते गतवन्
इदानीं निद्रां कृतवन्तः
निद्रा कृतवन्तः
प्रहरत्रयम् अभवत् इदानीं किमस्ति रात्रिः नास्ति खलु
रात्रिः नास्ति
प्रातः अस्ति
प्रातः अस्ति
अतः ते मार्गस्य अन्वेषणं कर्तुम् अग्रे गतवन्तः प्रस्थिताः ते
पिशाचेन सह रात्रौ सञ्जातस्य मल्लयुद्धस्य वर्णनं कृतवन्तौ डिस्कस्ड् तेन सञ्जातान् शतान् अपि दर्शितवन्तौ सञ्जातान् ते मल्लयुद्ध एकनिमिषं महोदय ते सञ्जातान् शतान् अपि दर्शितवन्तः बलराम सात्यकेः शरीरे शताः
सन्ति
तान् दर्शितवन्तः दर्शितवन्तः
समीचीनं तत्र तेन इत्युक्ते तेन सञ्जातान् इति अस्ति तेन
इत्युक्ते मल्लयुद्धेन सञ्जातान् शतान्
सञ्जातान् क्षतान्
बलराम सात्यकी द्विवचन अस्ति अतः दर्शितवन्तौ
ते दर्शितवन्तौ समीचीनं हा इदानीं
श्रीकृष्ण हसन् शत्रुधनरूप अस्ति हसित् हसति हसति पिशाचम् उत्तरीयस्य अञ्चलतः सः बद्धवान् आसीत् पूर्वं तम् उत्तरीयस्य अञ्चलतः निष्कास्य करतले स्थापयति वदति उक्तवान् वदति एष अस्ति क्रोधपिशाच एतस्य प्रकृतिः इत्युक्ते एतस्य स्वभावः अस्ति यदि प्रत्युत्तरदानेन यदि प्रत्युत्तरं वयं प्रत्युत्तरं दास्यामः तदा सः उग्ररूपं प्राप्नोति सः वर्धते
लघुरूपं न किन्तु
बृहत् रूपं प्राप्नोति यदि उपेक्षां कुर्मः यदि वयम् उपेक्षां कुर्मः तर्हि सः स्वयमेव सः स्वयमेव दुर्बलः भवति इत्युक्ते वीक् भवति न्यूनं भवति अथवा लघुरूपं प्राप्नोति इति रूपमपि अतः क्रोधपिशाचस्य स्वरूपं तदा बलरामसात्यकौ ज्ञातवन्तौ बलरामौ सात्यके बलरामौ ज्ञातवन्तौ
ज्ञातवन्तौ तत्र किम् अस्ति
जानाति
जानीतः
जानन्ति ज्ञातवान् ज्ञातवन्तौ ज्ञातवन्तः
इदानीं सात्यकी बलरामौ क्रोधपिशाचस्य स्वरूपं तदा जानीतः स्थितिः अस्ति अस्तु प्रश्न समीचीनमस्ति महोदय प्रश्नः अस्ति वा तत्र क्रोधपिशाचस्य विषये कथां सर्वे अवगच्छन्ति वा
महोदय दशनिमिषपर्यन्तं मया बहिः गन्तव्यम् अस्ति
अस्तु अस्तु महोदय चिन्ता मास्तु चिन्ता मास्तु महोदय अस्तु अन्य कोऽपि प्रश्नः अस्ति वा अस्तु इदानीं किं कुर्मः तत्र अहं जानामि गृहपाठः आसीत् इति किन्तु केवलम् अर्धघण्टा अस्ति इति कृत्वा वयम् एतत् कुर्मः एतावत् वयं भूतकालस्य एकमेव रूपं दृष्टवन्तः पठितवान् पठितवती इति किन्तु तद् सत्यक्रियापदं नास्ति तद् विशेषणम् अस्ति इति अपि जानीमः इदानीं किं कुर्मः, तत्र लङ्लकारः यत् वस्तुतः सत्यभूतकालक्रियापदमस्ति तस्य अभ्यासम् इदानीम् आरम्भं कुर्मः. अतः किं कुर्मः, तत्र द्व्यशीतिः तमे पुटे 82 तत्र गच्छामः, तत् पश्यामः. तत्र हा हरि महोदय, तत्र चलति इति तत्र कोष्टकमस्ति, तत्र चलति इति वर्तमानकालक्रियापदमस्ति. चलति इत्युक्ते गच्छति इति, मूव्स्. तस्य लङ्लकारः भूतकालरूपं तत्र दत्तमस्ति. एकवारं पठति वा तत्र अचलत् इति?
कुत्र महोदय?
द्व्यशीतिः 82
आम् महोदय. अचलत् अचलताम् अचलन् अचलः अचलतम् अचलत्
अचलत्
अचलम् अचलत् अचलम् अचलाव अचलाम
इति अस्ति. अस्तु, धन्यवादः महोदय. इदानीम् अद्य वयं किं कुर्मः, केवलं क्रियापदस्य अभ्यासः कुर्मः. अग्रिमवर्गे नामपदेन मिलित्वा वाक्यं रचित्वा तद्वदामः. अस्तु, अद्य केवलं क्रियापदस्य एव अभ्यासः. अस्तु, तत्र भानुचतुर् महोदय अग्रिमम् अपश्यत् इति.
अपश्यताम् अपश्यन् अपश्यः अपश्यतम् अपश्यत
अपश्यम् अपश्याव अपश्याम इति अस्ति. अस्तु महोदय, इदानीम् अत्र पठति इति करोति वा महोदय भानुचेतनि महोदय? पठति इति
पठति
पठताम्
अपठताम् अपठन् अपठ अपठः अपठतम् अपठत अम् अपठम् अपठाव अपठाम.
समीचीनं महोदय, धन्यवादः. नरेश महोदय, इदानीं खादति इति?
खादति अखादत् अखादताम् अखादन् अखादः अखादतम् अखादत अखादम् अखादाव अखादाम
अखादाम. समीचीनं महोदय. अस्तु, अग्रे गीताञ्जलि भगिनी, तत्र त्यजति इति?
त्यजति अत्यजत्
अत्यजत्
अत्यजत् अत्यजत्
अत्यजन्
अत्यजः
समीचीनम्
अत्यजतम् अत्यजत अत्यजम् अत्यजाव अत्यजाम.
समीचीनं भगिनि. अस्तु, इदानीं हरि महोदय, नयति इति?
अनयत् अनयताम् अनयन् अनयनः अनयतम्
मध्यमपुरुषे एकवचने किम् अस्ति?
अनयन्
नयति. तत्र किं भवति, नयति अपि अनयत् किं कुर्मः, अन्ते प्रथमतया अकारः स्थापयामः खलु. नयति इति अस्ति, किं कुर्मः, अनयति इति प्रथमतया भवति, अकारः पूर्वं भवति उपसर्गः भवति कारः. तदनन्तरं ति इति अस्ति, तत् किं कुर्मः? इत् इति वदामः, भवति अतः अनयत् इति भवति खलु. तत्र ति अनयति इति अस्ति, तत् अनयत् इति भवति. किन्तु छलसि तत् किं भवति? सि इति अस्ति वा तत्र? अचलसि इति अस्ति वा? मध्यमपुरुषे किं भवति? सः चलति, त्वं चलसि. किन्तु भूतकाले किं भवति? अचलः. अत्र नयति, नयसि. अत्र सि इति तिष्ठति वा अथवा गच्छति? सि इति
गच्छति.
अतः अनयः इति भवति, रूपं भवति अनयः.
अनयः अनयतम् अनयत अनयम् अनयाम अनयाम.
हा, समीचीनं महोदय. तत्र केवलं द्रष्टव्यम् अस्ति कुत्र तकारः अस्ति कुत्र नास्ति इति, तावदेव. मध्यमपुरुषे एकवचने तकारः नास्ति. अतः तत्र किञ्चित् क्लेशः भवति तत्र. अतः तत्र सावधानं, मध्यमपुरुषे एकवचने सावधानम्. अस्तु, अग्रे भानुचितनी महोदय, वद् धातुः वदति इति.
अवदत् अवदताम् अवदन् अवदः अवदतम् अवदत अवदम् अवदाव अवदाम.
हा, समीचीनम्. अस्तु, अग्रे नरेश महोदय, मिलति इति.
मिलति, अमिलत् अमिलतम् अमिलन् अमिलः अमिलतम् अमिलत अमिलम् अमिलाव अमिलाम
इति अस्ति. समीचीनम्. अस्तु, गीताञ्जलि भगिनी, पश्यति इति. अपश्यत्
अपश्यताम्
अपश्यन् अपश्यतः अपश्य तत्र अपश्यत् इति तत्र
अपश्यः.
हा, समीचीनं भगिनि. हा, इदानीं समीचीनं. हा,
अपश्यतम् अपश्यत
अपश्यन् अपश्यम् अपश्यम्
अपश्याव अपश्याम.
हा, समीचीनम्. अस्तु, इदानीं हरिमहोदय, तत्र लिख् लिखति इति, अलिखत्
अलिखत् अलिखताम् अलिखन् अलिखः अलिखतम् अलिखत अलिखम् अलिखाव अलिखाम.
हा, इति अस्ति. अस्तु, हा, इदानीं भानुचेतनी महोदय, तिष्ठति इति.
अतिष्ठत् अतिष्ठताम् अतिष्ठन् अतिष्ठ अतिष्ठः महोदय
अतिष्ठः अतिष्ठः
अतिष्ठः अतिष्ठतम् अतिष्ठत अतिष्ठम् अतिष्ठाव अतिष्ठाम.
हा, इति समीचीनम्. अग्रे गीताञ्जलि भगिनी, पृच्छति अपृच्छत् इति.
अपृच्छत् अपृच्छताम् अपृच्छन् अपृच्छः अपृच्छतम् अपृच्छत अपृच्छम् अपृच्छाव अपृच्छाम.
हा, अस्तु, इदानीं नरेश महोदय, क्षालयति इति.
अक्षालयताम् अक्षालयन् अक्षालयः अक्षालयतम् अक्षालयत अक्षालयम् अक्षालयाव अक्षालयाम
हा इति समीचीनम् एतावत् वयं किं कृतवन्तः तत्र परस्मैपदी धातूनां लङ्लकारस्य रूपाणि कीदृशानि इति दृष्टवन्तः परस्मैपदी धातूनाम् इदानीम् आत्मनेपदी धातूनां वदतु भगिनि
महोदय एकमेकम् उपसर्गे
हा उपसर्गः हा तत् 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 किञ्चित् अग्रे पश्यामः भगिनि प्रथमतया रूपद्वयमपि पश्यामः परस्मैपदी धातु अपि आत्मनेपदी धातु उपसर्गस्य विषयः यदि परस्मैपदी धातु अस्ति आत्मनेपदी धातु किं करणीयम् उपसर्ग अस्ति चेत् तद् समानम् अस्ति अतः किन्तु रूपम् एकवारं पश्यामः तत्र अत्र किमस्ति चेत् तत्र हा अग्रिमपुटे यद् अस्ति तद् तदेव रूपम् अस्ति तत्र हा भानचेतनी महोदय अग्रिमपुटे 83 पुटे उपरि यदस्ति भाषते इति तस्य भूतकालरूपं वदति महोदय तत्र पठतु तत्र
अभाषत् महोदय
हा अभाषत इति
अभाषत अभाषेताम् अभाषन्त अभाषथाः अभाषेताः अभाषध्वम् अभाषे अभाषावहि अभाषामहि
हा एतत् आत्मनेपदी धातुः अस्ति अत्र हा भाषते हा तस्य लङ्लकारः अस्ति अत्र हरिमहोदय तत्र अग्रे यदस्ति हा ब्रूते इति तत्र तस्य रूपम् अब्रूत इति एकवारं पठतु महोदय
अब्रूत अब्रुवाताम् अब्रुवत् अब्रुताः अब्रुवाथाम् अब्रुद्यम् अब्रुवि अब्रूवहि अब्रूमहि
हा इति अस्ति किन्तु वयं प्रथम रूपं यदस्ति तदेव तस्य अभ्यासं कुर्मः प्रथमतया अनन्तरम् एतत् ब्रू इति धातोः रूपं किञ्चित् तत्र भेदः अस्ति हा अत्र साधारणरूपं यदस्ति भाषते इति धातोः तस्य अभ्यासं कुर्मः अस्तु तत्र नरेश महोदय प्रथमतया एतत् कुर्मः तत्र सेवते इति अथवा सेवते इति कुर्मः महोदय
सेवते सेवेते सेवते
हा किन्तु लट्लकारः नास्ति लङ्लकारः
असेवत असेवेताम् असेवन्त असेवथाः असेवेथाम् असेवध्वम् असेवे असेवावहि असेवामहि
हा समीचीनं गीताञ्जलि भगिनि तदेव एकवारं वदतु भगिनि
महोदय वयं कुत्र स्मः महोदय
महोदय पेज् 83 मध्ये स्मः आङ्ग्लकारः आत्मनेपदी धातूनाम्
अस्तु महोदय
गीताञ्जलि भगिनि तत्र पेज् 83 मध्ये यत्र भाषते इति पदस्य अभाषत अभाषेताम् इति अस्ति खलु तत्र सेवते इति हा समीचीनमस्ति भगिनि अस्तु हा इदानीं भानुचेतनी महोदय शोभते इति
शोभते
भाषते रूपस् तदेव रूपम्
महोदय अशोभत् अशोभत्त अशोभेताम् अशोभन्त अशोभताः अशोभताम् अशोभध्वम्
अशो मध्यमपुरुषे द्विवचनरूपम्
अशोभेताम्
पुनरेकवारं पुनरेकवारं मध्यमपुरुष वदतु महोदय पुनरेकवारं मध्यमपुरुष सर्वं वदतु मध्यमपुरुष
अशोभेताम् अशोभेताम्
हा समीचीनम् अस्तु हा
अशोभेताम्
अग्रे
उच्चारणं सम्यक् महोदय
सम्यक् अस्ति सम्यक् अस्ति महोदय
अशोभध्वम् अशोभे अशोभावहि अशोभामहि
हा समीचीनं महोदय इदानीं हरि महोदय लज्जते इति लज्जते अलज्जत
अलज्जत अलज्येताम्
यकारः नास्ति महोदय अलज्जत जकारः द्विवारम् आगच्छति लज्जते
अलज्जत अलज्येताम्
अलज्जेताम्
अलज्येताम् अलज्यन्त
तत्र ज्या इति नास्ति महोदय झ अलज्जत
अलज्जत अलक्ष्येताम् अलक्ष्यन्त अलक्षथाः अलक्ष्येताम् अलक्ष्यत्वम् अलज्जत्वम्
अलज्जत्वम्
अलज्जे अलच्छावहि अलच्छामहि
हा इति अस्ति समीचीनम् अस्तु इदानीं रघुपतिमहोदय सहते
सहते असहत असहेताम् असहन्त असहताः असहेताम् असहद्वम् असहे असहे असहावहि असहामहि
असहामहि असहामहि समीचीनम् अस्तु
किञ्चित् क्लिष्टमस्ति
सत्यं सत्यं अस्तु अस्तु अतः एव अभ्यासः करणीयः अस्ति महोदय अस्तु भूतलङ्लकारस्य रूपम् एतादृशम् अस्ति इदानीं किं कुर्मः करोति इति करोति इति कोऽपि अस्तु नरेश महोदय करोति इति जानाति वा
अकरोत् अकरोत् अकरोत्
करोति इति करोति क्षम्यताम् इदानीं परस्मैपदी दातु अभवत् एकनिमिषः एतत् कुर्मः तत्र करोति इति अकरोत् अकरोत् इति
करोति
नास्ति
अकरोत् अकरोताम् अकरो अकुर्वम्
तत्र वकार अस्ति इति मन्ये महोदय अकुर्वः अकुर्वतम् अकुर्वत तत्र अकरोत् अकुरुताम् अकुर्वन् अकुर्वः अकुर्वतम् अकुर्वत अकुर्वम् अकरवाव अकरमाम इति अस्ति तत् किञ्चित् विशेषरूपमस्ति अस्तु अस्तु केवलम् एकवारं तद् वक्तुम् इष्टवान् यतः तत्र उदाहरणं तत्र वक्तुं शक्नुमः इति कृत्वा हा इदानीं गीताञ्जलि भगिनी पृष्टवती तत्र उपसर्गः अस्ति चेत् किं कुर्मः इति. अतः एतत् कुर्मः, क्षालयति इति पुनरेकवारम् अन्य कोऽपि पूर्वं नरेश् महोदय उक्तवान्. गीताञ्जलि भगिनी भवती वदतु, क्षालयति इति परस्मैपदी धातु अस्ति, पुटसङ्ख्या 82 मध्ये एव तस्य रूपम् अस्ति. क्षालयति लङ्लकाररूपं किम् अस्ति? इति अस्ति. समीचीनम्. इदानीं प्रक्षालयति इति तत्र किं भवति इत्युक्ते, प्र इति उपसर्गः अस्ति, क्षालयति प्रयोगः क्षालयति. इदानीं किं कुर्मः, तस्य प्रक्षालयति इति पदस्य क्रियापदस्य लङ्लकारम् आवश्यकं चेत् क्षालयति इति क्रियापदं स्वीकुर्मः, तस्य लङ्लकाररूपं कुर्मः. क्षालयति किं भवति? अक्षालयत् इति भवति. तदनन्तरम् उपसर्गः पुनः स्थापयामः, प्राक्षालयत् इति भवति, प्र प्लस् अक्षालयत् प्राक्षालयत् इति, प्राक्षालयत् यत्र यत्र अकारः अस्ति तस्य पूर्वं प्र इति भवति, प्र प्लस् अकारः प्रा इति भवति. हा, अतः गीताञ्जलि भगिनी एकवारं वदतु तत्र रूपं.
प्राक्षालयत्
इति अस्ति. अस्तु, समीचीनं. हा, इदानीं तत्र हा इदानीं तत्र रघुपतिमहोदय तत्र हा इदानीम् एतत् कुर्मः. हा, तत्र उपसर्गः अस्ति चेत् किं कुर्मः इति तत् दृष्टवन्तः. तत्र करोति इति तस्य रूपं भवान् स्मरति वा महोदय?
अकरवाम
इति अस्ति इति. हा, पुनरेकवारं प्रायशः द्रष्टव्यमस्ति. हा, किन्तु एतत् कुर्मः, तत्र स्वीकरोति इति अस्ति चेत् किं भवति इति, केवलम् अकरोत् इति, अकरोत् इति स्वीकुर्मः, अन्यत् त्यजामः. अकरोत् इति अस्ति, करोति अकरोत्. इदानीं स्वी प्लस् करोति, तत्र किं कुर्मः? न अकारः प्रथमतया स्वी प्लस् करोति, स्वीयोगः करोति अस्ति. प्रथमतया स्वी इति यद् उपसर्गः अस्ति, यः उपसर्गः अस्ति तं निष्कासयामः, तद् नास्ति इति चिन्तयामः. केवलं करोति इति अस्ति. इदानीं करोति इति पदस्य लङ्लकाररूपं किम् अस्ति?
अकरोत्.
अकरोत् इदानीम् अकरोत् इति अस्ति. इदानीं पुनः उपसर्गः स्थापयामः, स्वी प्लस् अकरोत् अकारः, इ प्लस् अकारः यकारः, यकारः एण्ड् सन्धि भवति तत्र, स्व्यकरोत्
स्व्यकरताम्
स्वकुर्वन् इति तादृशं भवति
स्वकुर्वन् सोरि स्वकुर्वन्
तत्र सर्वत्र स्विया इति भवति स्विया इति भवति स्वी प्लस् आ स्विया इति भवति अस्तु अन्यत् उदाहरणं तत्र पश्यामः तत्र ईक्षते इति ईक्षते इति तत्र किं भवति इति पश्यामः तत्र ईक्षते इति परस्मै दातु न दातु वा आत्मनिपदि दातु वा आत्मनिपदि दातु अस्तु इदानीं किं भवति भाषते इति स्थाने अभाषत इति भवति अकारः पूर्वम् उपसर्ग स्थाने स्थापयामः अकारः पूर्वं भवति भाषते अपि त प्लस् योगः एकारः किं भवति केवलम् एकारः गच्छति त अभाषत इति भवति इदानीम् ईक्षते इति अस्ति ते यद् अस्ति अन्ते तत् त इति कुर्मः तत् किं भवति ईक्षत इति भवति इदानीम् अकारः पूर्वं स्थापयामः अयोगः ईक्षत
ऐक्षत
ऐक्षत इति भवति तत्र ऐक्षत इति भवति रूपं वदतु महोदय रघुपति महोदय
ऐक्षत ऐक्षेतां भवति वा ऐक्षन्त
ऐक्ष्यन्त
ऐक्षताः ऐक्षेतां ऐक्षध्वम् ऐक्षध्वम् ऐक्ष्ये ऐक्षावहि ऐक्षामहि
ऐक्ष्यामहि
ऐक्षामहि
समीचीनं महोदय ऐक्षामहि इति भवति समीचीनं तत्रापि अपि अन्यत् अस्ति यत् तत्र दत्तमस्ति तत्र इच्छति इति तत्र भानुचतुर्महोदय इच्छति इति यदस्ति तस्य पूर्वं चलति इति अस्ति चेत् किं कुर्मः अचलत् इति भवति खलु इदानीम् इच्छति इति अस्ति चेत् किं भवति पूर्वम् अकारः प्लस् इच्छत्
ऐच्छत्
हा तदेव पेज् 82 अधोभागे दत्तमस्ति एकवारं पठतु महोदय
ऐच्छत् ऐच्छताम् ऐच्छन् ऐच्छः ऐच्छतम् ऐच्छत ऐच्छम् ऐच्छाव ऐच्छाम
अत्र अकारः योगः इकारः इच्छति तत्र वृद्धिः वृद्धिः वृद्धिसन्धि भवति ऐ इति भवति आ प्लस् सि तत्र ए तदनन्तरं वृद्धिः भवति ऐ इति भवति ऐच्छत् इति भवति तत्र तद् अतः एव तद् तत् रूपं तादृशम् अस्ति अत्र अस्तु इदानीं किम् अन्यत् किं कुर्मः अत्र अन्यत् अपि उपसर्गस्य उदाहरणं पश्यामः नरेश महोदय उपविशति
उपविशति
तत्र उपसर्गः अस्ति उप् अपि क्रियापदमस्ति विशति विशति अस्ति चेत् किं कुर्मः अविशत् इदानीम् उप प्लस् अविशत् किं भवति
उपाविशत्
इदानीं रूपाणि वदतु
उपाविशत उपाविशेताम्
न एतत् उपविशति इति परस्मैपदे
उपाविशताम् उपाविशन् उपाविशः उपाविशतम् उपाविशत उपाविशम् उपाविशाव उपाविशाम
इति अस्ति तत्र उपसर्गः अस्ति चेत् केवलं प्रथमतया उपसर्गं त्यजतु निष्कासयतु क्रियापदस्य लट् लकारस्य रूपस्य लङ्लकाररूपं तस्य परिवर्तनं करोतु तदनन्तरं पुनः उपसर्गः स्थापयतु यदि क्रियापदे अथवा धातु आरम्भे तत्र स्वरः अस्ति चेत् किं भवति तत्र सन्धि भवति इच्छति इति अस्ति चेत् तत्र ऐच्छत् इति भवति इदानीम् अन्यत् उदाहरणमस्ति इदानीं एतत् परस्मैपदि धातु अस्ति एकवारम् एतत् कुर्मः तदनन्तरं विरमाम तत्र अस्तु अस्तु तस्य पूर्वं हरिमहोदय एतत् करोतु खिद्यते इति आत्मनेपदी धातु उपसर्ग किमपि नास्ति खिद्यते इति तस्य लङ्लकाररूपम् एकवारं वदतु महोदय हरिमहोदय खिद्यते भाषते इव अभाषत तादृशः अखिद्यत इति इति अस्ति अस्तु अन्तिम उदाहरणम् एतत् तत्र ऊहते इति आत्मनिपदि धातुः अस्ति रघुपति महोदय आ प्लस् उ किं भवति
आ प्लस् उ ओ भवति
वृद्धिः अपि अस्ति तत्र
वृद्धि भवति
तदनन्तरं वृद्धिः अपि भवति
औहते औहत औहत औहेताम् औहात् औहन्त औहताः औहेताम् औहध्वम् औहे एव औहे औहावहि औहामहि
इति अस्ति अस्तु तत्र अनेकाः विषयाः तत्र एकत्र भवन्ति तत्र सन्धिविषयः अस्ति अपि किन्तु वयम् उदाहरणं दृष्ट्वा कथं करणीयम् इति पश्यामः इदानीं सन्धिः विषयः मास्तु अकारः अस्ति इकारः अस्ति चेत् किं भवति इति तादृशचिन्तनं भवतु इदानीम् अग्रे गत्वा सन्धिविषयः सर्वम् आयाति अस्तु परिचयः जातः अद्य लङ्लकारस्य अग्रिमवर्गे किं महोदय इदानीं प्रथमवारं दृष्टवन्तः खलु गत्वा भवति भवति एव
सुदन्तरूप एव सम्यक् अस्ति
सत्यं 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 किन्तु एतदपि मनसि आगच्छति चिन्ता मास्तु अभ्यासं कुर्मः अस्तु अन्य प्रश्नः अस्ति वा अस्तु विरमाम सर्वेभ्यो नमः अग्रिमवर्गे मिलामः धन्यवादः नमस्कारः नमस्कारः